साक्षात्कारात् विनीतो हरिहरज भवत्पादयुग्मे अर्पयेहम् गेयम् स्यात् नित्यमेतत् सकलजनमनोमोददम् सुप्रभातम्।